एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधि सभायाः ह्यस्तनोपवेशे गत विक्रम वर्षीयं पर्यटन विधेयकम् आधृत्य विमर्शनं भवतु इति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा खड्ग राज पौडेलेन विधेयकमेतत् विमर्शनाय उपवेशे प्रस्तुतम् आसीत्। पर्यटन विधेयकम् आधृत्य विहिते सैद्धान्तिक विमर्शने सांसदाः पर्यटन क्षेत्रस्य सबल विकासस्य कृते नूतन पर्यटकीय गन्तव्य क्षेत्राणाम् अन्वेषणं विधेयं पर्यटन व्यवसायः जनतायाः जीवनशैल्या सह योजनीयः वातावरणस्य संरक्षणं सांस्कृतिकं हस्तान्तरणं च सहैव अग्रे नेयं चेति विषयेषु परामर्शनम् प्रददुः। तत्पूर्वं प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रतिपक्षिदलानां सांसदैः प्रधानमन्त्रिणा संसदि उत्थापितानां प्रश्नानाम् उत्तरं देयं संसदं प्रति प्रधानमन्त्रिणा उत्तरदायिना भाव्यम् इति च उक्त्वा अवरोधः सृष्टः आसीत्। ह्य प्रतिनिधिसभायाः प्रथमोपवेशः विपक्षिदलानां सांसदानाम् अवरोधस्य कारणेन सभामुखेन डोलप्रसाद अर्यालेन पञ्चदश निमेषानां कृते स्थगितकृतः आसीत्। द्वितीयवारं प्रारब्धे उपवेशे चापि विपक्षिदलानां सांसदैः अवरोधाय नैरन्तर्य प्रदानानन्तरं राष्ट्रपदलस्य प्रमुख सचेतक पदीयः कविन्द्र बुर्लाकोटी प्रधानमन्त्रिणः बालेन्द्र शाहस्य सप्ताहस्य अभ्यन्तरे सदने उपस्थितिर्भविष्यतीति सूचितवान् आसीत्। विपक्षिदलानां सांसदैः प्रधानमन्त्रिणा संसदि उपस्थित्यै सभामुखेन अनिवार्यतया निर्देशनं प्रदातव्यमिति याचनायाः पश्चात् सभामुखेन अर्यालेन प्रधानमन्त्रिणा शाहस्य शीघ्रमेव सदने उपस्थितिर्भविष्यति उत्थापितानां प्रश्नानाम् उत्तरप्रदानाय प्रधानमन्त्री तत्परश्च वर्तते इति विज्ञापितं च आसीत्। तत्पूर्वं ह्यस्तनोपवेशे सांसदैः वर्षायामस्य कारणेन दुरापन्नाभिः घटनाभिः प्रभावितानां नागरिकाणाम् उचितव्यवस्थापनाय सर्वकारस्य ध्यानाकर्षणं विहितम् आसीत्। सैव सांसदः पेट्रोल तैलेन्धनस्य मूल्यवृद्धेः कारणेन व्यवसायिनः पीडिताः वर्तन्ते इति चर्चयन्तः मूल्यसमायोजनस्य व्यवस्थां प्रभावकारिणीं विधातुं विशेष सहयोगस्य घोषणां कर्तुं च अभ्ययाचन्त। प्रधानमन्त्रिणा बालेन्द्र शाहेन नागरिकाणां जीवनम् उद्धर्तुं वर्तमान सर्वकारः प्रतिबद्धोऽस्तीति उक्तम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य काष्ठमण्डपस्थैः नवदेहलीस्थै च यूरोपीय संघस्य सदस्य राष्ट्राणां राजदूतैः काष्ठमण्डपवर्तिस्थैः वर्तिभिः अन्य देशानां राजदूतैश्च सह सम्भूते संयुक्त मेलने प्रधानमन्त्री शाह सर्वकारेण वर्तमानावश्यकतायाः स्वस्य दायित्वस्य च बोधः पूर्णतः विद्यमानोऽस्तीति प्रावोचत। मेलनावसरे प्रधानमन्त्री शाह नेपाले सम्प्रत्येव सम्पन्नस्य निर्वाचनस्य परिणामेन सुशासनस्य समावेश्यार्थिक समृद्धेश्च कृते स्पष्ट जनादेशः प्रदत्तोऽस्तीति उक्तवान् आसीदिति प्रधानमन्त्रिणः शाहस्य सचिवालयेन ज्ञापितं वर्तते। वर्तमान सर्वकारस्य संघटनानन्तरम् अपि विदेशनीति पूर्ववत् भविष्यतीति च प्रधानमन्त्री शाह तदवसरे समस्पष्टयत्। नेपालस्य सुशासनस्य अर्थतन्त्रस्य समावेशितायाश्च कृते वर्तमान सर्वकारः प्रतिबद्धोऽस्तीति च असौ तदवसरे उक्तवान्। प्रधानमन्त्री शाह नेपालेन सन्तुलित विदेशनीतेः अवलम्बनं करिष्यते इति समस्पष्टयन् नेपालस्य विकास सहयोगिभ्यः मित्रराष्ट्रेभ्यः आभारं च प्राकटयत्। तदवसरे यूरोपीय संघस्य राजदूतैः अन्यै राजदूतैश्च शान्तिपूर्ण रूपेण निर्वाचनं सम्पादितम् इति उक्त्वा नेपालस्य प्रशंसा कृता आसीत्। परराष्ट्रमन्त्री शिशिर खनाल विदेशेषु स्थितान् नेपाली जनान् मोफा मित्र इति नामाख्यस्य चलदूरभाषा अनुप्रयोगस्य माध्यमेन वाणिज्य दूत सेवां ग्रहीतुम् अनुरुणद्धि। वाणिज्य दूत सेवा विभागेन ह्य आयोजिते मोफा मित्र इति नामाख्यस्य चलदूरभाषानुप्रयोगस्य शुभारम्भ कार्यक्रमे मन्त्री खनालः सार्वजनिक सेवाम् इतोपि सहजाम् नागरिक मैत्रिणीम् च विधातुम् मोफा मित्र इति दूरभाषानुप्रयोगः प्रभावकारी भविष्यति इति विश्वासम् व्यक्तवान्। मोफा मित्र सेवा सप्तसप्तत्याम् एव जनपदेषु विदेशे सुसर्वेषु कौटनीतिक नियोगेषु च प्राविता स्थिति तदवसरे असौ असूचयत। सूचना संचार मन्त्री डाक्टर विक्रम तिमल सिन्हा मन्त्रालय अन्तर्गतानाम् संचार संस्थानाम् वार्षिकम् लेखा परीक्षणम् शीघ्रम् सम्पादयितुम् दीर्घकालात् ग्रहणाय संकलनाय च अवशिष्टम् वित्तम् संकलयितुम् च निर्दिशति। ह्य संचार संस्थानाम् प्रमुखै सह मन्त्रालये सम्भूतस्य विमर्शनस्य क्रमे संचार मन्त्री डाक्टर तिमल सिन्हा वर्षेभ्यः संकलनाय अवशिष्टस्य वित्तस्य ग्रहणस्य कार्यम् लेखा परीक्षणस्य कार्यञ्च प्राथमिकतायाम् संस्थाप्य अग्रे वर्धितुम् निरदिशत। उपवेशे गोरखापत्र संस्थानस्य सार्वजनिक सेवा प्रसारण नेपालस्य च 79-2000 आद अशीत्युत्तर द्विसहस्रतमा च आर्थिक वर्षात् लेखा परीक्षणस्य कार्यम् अवशिष्टमस्ति इति विज्ञापितम् आसीत्। तदवसरे मन्त्री डाक्टर तिमल सिन्हा तासाम् संस्थानाम् संकलनाय अवशिष्टम् वित्तम् संकलयितुम् स्पष्टाम् योजनाम् निर्मातुम् आवश्यकतायाः अनुसारेण विधि प्रक्रियाम् अग्रेसारयितुम् नियमित रूपेण अनुगमनम् कर्तुम् च निरदिशत्। प्रधानमन्त्रिणा बालेन्द्र शाहस्य राजनीतिक परामर्शदाता संविधान संशोधन सम्बद्ध विमर्शन पत्रम् निर्मातुम् संघटितस्य कार्यदलस्य संयोजकश्च असीम शाह सर्वकारः नैजक्षेत्र मैत्रीनीतिम् निर्माय अग्रे वर्धमानोऽस्तीत्यतः निर्भयेन व्यवसायम् सञ्चालयितुम् अनुरोधा दि। सीमा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालय उद्योग वाणिज्य मन्त्रालयस्य नैज क्षेत्रस्य च प्रतिनिधिभिः सह पूर्वेद्यो संविधान संशोधनस्य विषये ह्य परामर्शनस्य क्रमे संयोजका सह नैज क्षेत्रेण सह सहकार्यम् विना देशस्य आर्थिक विकासस्य सम्भवो नास्ति इति विषय सर्वकारेण ज्ञातोऽस्ति इति प्रावोचत।